वसन्तो ग्रीष्मो वर्षा एते देवा ऋतवोऽथ शरद्धे मन्तः शिशिर एते पितरो य एवायमापूर्यते ऋद्धमास एते देवा यो पक्षीयते स पितरो हरेव देवा रात्रिः पितरः समानस्यान्नः पूर्वान्न एव देवा अपरान्नः पितर एते हैवर्तवो देवाः पितरः स य एवं विद्वान् देवाः पितर इति क्वयत्यास्य देवा देवहूयञ्यन्त्या पितरः पितृहूयमवन्ति हैनं देव देवहूयेवन्ति पितरः पितृहूयेय एवं विद्वान् देवाः पितर इति क्वयति तान् वा एतानुभयानसावेवोद्यन्नभिरक्षति योऽसौ तपति सयत्रं सयत्रोदङ्नेति तर्हि देवानृतो नभिरक्षति तर्हि देवे श्रुतुषु भवत्यथ यत्र दक्षिणैति तर्हि पितॄनृतो नभिरक्षति तर्हि पितृश्रुतुषु भवति तस्माद्यत्रैवोदिन्यात्तर्के वा दधीत तर्हि वा एष देवानुपावर्तते तर्हि देवानभिरक्षति तर्हि देवेषु भवत्यपहत पाप्मानो वै देवा अपपाप्मानग्नोहते मृता देवानामृतत्वशास्ति सर्वमे वायुरेति श्रीर्देवा श्रियं गच्छति यशो देवा यशोः भवति तस्मात्तर्ख्या दधीताथ यत्र दक्षिणैति न तर्ख्या दधीत तर्हि वा एष पितॄनुपावर्तते तर्हि पितॄनभिरक्षति तर्हि पितृषु भवत्यनपहत पाप्मानो वै पितरो न पाप्मानमपहते मर्त्याः पितरः पुरा आयुषो म्रियते तस्मात्तर्हि न दधीता तद्वै ब्रह्मैव वसन्तक्षत्रं ग्रीष्मो विद्वर्षास्तस्माद्ब्राह्मणो वसन्त आदधीत ब्रह्म हि वसन्तक्षत्रियो ग्रीष्मे क्षत्रज्ञो हि ग्रीष्मो वैश्यो वर्षासु भूमा हि विद्भूम हि वर्षायन्तु ह कामं काम एततमभ्यादधीता ब्राह्मणो यदिह काम एतब्रह्मवर्चसी स्यामिति वसन्त आदधीत ब्रह्म वै वसन्तो ब्रह्मवर्चसी हैव भवति यदिह काम एतक्षत्रस्य प्रतिमा स्याग्श्रिया यशसेति ग्रीष्म आदधीत क्षत्रं वै ग्रीष्मक्षत्रस्य हैव भवति प्रतिमा श्रिया यशसा यदिह पुष्टिकाम स्याद् वर्षास्वादधीत भूमा वै विद्भूम वर्षा बहुर्हैव प्रजया पशुभिर्भवत्ते तन्नु यथर्थो तत्वा आहुरपहत पाप्मानो वारुतव इत्यसौ वा एतेषामुद्यन् सर्वं पाप्मानप सर्वं पाप्मानमपहन्तीति तस्माद्य दैवैनं कदाचोपनमे तथा दधीताथ यजेतनश्वश्वमुप सीतन वै मनुष्यश्वस्तनं वेदको हि तस्मै मनुष्यो यश्वस्तनं विद्यात्